इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। राज्यसभायां केन्द्रीय आय व्ययकोपरि चर्चा श्वः 11 वादनं यावत् स्थगिता। लोकसभायाः अध्यक्षस्य ओम बिरला वर्यस्य विरुद्धं विपक्षेन अविश्वास प्रस्तावस्य सूचना दत्ता अस्ति। गृहमन्त्री अमितशाहः अद्य नवदिल्लीनगरे साइबर सक्षम कपट निवारणस्य तथा पर्यावरण व्यवस्थायाः विनाशस्य विषये राष्ट्रिय सम्मेलनस्य उद्घाटनम् अकरोत्। सर्वोच्च न्यायालयेन अद्य केन्द्रमुद्दिश्य लुप्तानां बालानां घटनायाः विषये निरीक्षणं कर्तुम् आदिष्टम्। बांग्लादेशस्य निर्वाचनस्य प्रचारः अद्य प्रातः समाप्तिं गतः। अपि च पुरुषाणां 20-प्रति 20 क्रिकेट विश्व चषक क्रीडायाः ग्रुप स्टेज संघर्षे न्यूजीलैंड दलेन यूनाइटेड अरब अमीरात दलं 10-2 पराजितम्। अथ वार्ताः विस्तरेण। राज्यसभायां केन्द्रीय आय व्ययकोपरि चर्चा श्वः 11 वादनं यावत् स्थगिता। अद्य अस्यां चर्चायां भागं भजमानः शिवसेना सांसदः मिलिन्द देवडा इत्येषः प्रावोचत् यत् अतीव राजनैतिक आर्थिक रूपेण अशान्तिपूर्णे वातावरणे भारतं समिष्टि आर्थिक विकासस्य स्थिरतायाश्च दुर्लभ द्वीपत्वेव एकाकी एव राजते। डीएमके दलस्य कणिमोझी एनवीएन सोमू इत्यनेन आय व्ययक प्रस्तावः निर्धन विरोधित्वेन प्रतिपादितः। सहैव असौ प्रोक्तवान् यत् अयं देशस्य आर्थिक यथार्थतायाः पृथगस्ति। भाजपा दलस्य सुरेन्द्र सिंह नागरः अवदत् यत् आय व्ययके आर्थिक विकास वृद्धये जनानाम् आकांक्षापूर्तये तथा सर्वाः योजनाः जनाः प्राप्नुयुः इति सुनिश्चेतुम् अवधानं प्रदत्तम्। अपरपक्षे लोकसभायामपि केन्द्रीय बजट 26-27 वर्षयोः उपरि चर्चा आरब्धा। कांग्रेस सांसदः शशि थरूरः चर्चां प्रारभत। सः बजटस्य आलोचनां कुर्वन् अवदत् यत् सर्वकारीय व्ययः न्यूनः अभवत् तथा करप्राप्तिः स्थिरास्ति। श्री थरूरः अवदत् यत् अस्मिन् बजट प्रस्तावे करस्य भारः निगमानाम् अपेक्षया व्यक्तिगत करदातृषु अधिकः अस्ति। भाजपादलस्य अपराजिता सारंगी अवदत् यत् अयं बजटः सर्वकारस्य निष्ठां विश्वासं निरन्तरतां च प्रदर्शयति। सा मुक्त व्यापार अनुबन्धानां कृते सर्वकारस्य प्रशंसां कृतवती तथा च उक्तवती यत् भारतेन परिवर्तनशील विश्वव्यवस्थायां चातुर्येण कार्यं कर्तुं स्वक्षमता प्रदर्शिता। लोकसभायाः अध्यक्षः ओम बिरला वर्यस्य विरुद्धं विपक्षेन अविश्वास प्रस्तावस्य सूचना दत्ता अस्ति। लोकसभायाः सूत्रानुसारं विपक्षः लोकसभायाः महासचिवाय सूचनां निवेदयदिति। सूत्रानुसारं सूचना नियमानुसारेण परीक्षितं भविष्यति। कांग्रेस दलं डीएमके दलं समाजवादी दलं आरजेडी दलं वामदलानि इत्यादीनि विपक्षिदलानि प्रस्तुत सूचनापत्रे हस्ताक्षराणि कृतवन्तः। तथापि टीएमसी इत्यनेन दलेन हस्ताक्षरं न कृतम्। गृहमन्त्री अमितशाहः अद्य नवदिल्लीनगरे साइबर सक्षम कपट निवारणस्य तथा पर्यावरण व्यवस्थायाः विनाशस्य विषये राष्ट्रिय सम्मेलनस्य उद्घाटनम् अकरोत्। अस्मिन् अवसरे सम्बोधयन् श्रीशाहः अवदत् यत् अधुना साइबर सुरक्षा देशस्य सुरक्षया सह सम्बद्धमस्ति। सः अवदत् यत् देशे साइबर अपराधस्य उन्मूलनाय सर्वकारः अनेकान् उपक्रमान् आरभत। सः अग्रे अवदत् यत् भारतीय साइबर अपराध समन्वय केन्द्रम् I4C साइबर अपराधस्य विरुद्धं महत्वपूर्णः मञ्चः अभवत्। श्रीशाहः देशवासिषु साइबर सुरक्षायाः विषये अधिकं जागरूकतायाः प्रसारस्य आवश्यकतायाः विषये अवधानं दत्तवान्।
RBI और न्यायपालिका ये सभी साइबर अपराध को कम करने के लिए और रोकने के लिए संभवतः सभी प्रयास कर रहे हैं। जब तक अलाइन नहीं करते हैं, संरेखित नहीं करते हैं, हम इच्छित परिणाम प्राप्त नहीं कर सकते। और मुझे विश्वास है कि CBI और I4C का ये अनेक सत्रों में बटा हुआ प्रयास और सरकार के सारे विभागों को अलाइन करने में, उनके प्रयासों को संरेखित करने में बहुत महत्वपूर्ण भूमिका निभाएगा।
मन्त्रिणा सीबीआई इत्यस्य नूतनस्य साइबर अपराध शाखायाः उद्घाटनं कृतम्। गृहमन्त्रालयस्य आई4सी इत्यस्य राज्य साइबर अपराध समन्वय केन्द्रस्य S4C डैशबोर्ड इत्यस्यापि उद्घाटनं कृतम्। द्विदिवसीय सम्मेलनस्य प्राथमिक उद्देश्यं भारते साइबर सक्षम कपटस्य परिणामानां वृत्तेः विकसितस्य स्वभावस्य च संयुक्त अवबोधस्य निर्माणमस्ति। द्विदिवसात्मक सम्मेलनस्य आयोजनं केन्द्रीयान्वेषण विभागेन CBI भारतीय साइबर अपराध समन्वय केन्द्रस्य I4C गृहमन्त्रालयस्य च संयुक्त तत्वावधाने आयोजितम्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। सर्वोच्चन्यायालयेन अद्य केन्द्रम् उद्दिश्य देशस्य विभिन्नेषु भागेषु लुप्तानां बालानां घटनायाः पृष्ठे राष्ट्रव्यापी जालः अस्ति वा, राज्यविशिष्टः समूहः अस्ति वा इति ज्ञातुम् आदिष्टम्। न्यायमूर्तयः VV नागरत्न तथा उज्जल भूयान इत्येतयोः पीठः घटनानां पृष्ठे किमपि स्वरूपमस्ति वा अथवा तानि यादृच्छिकानि सन्ति वा इति निर्णेतुम् आवश्यकतां प्रति बलमाददात्। सर्वोच्चन्यायालयेन केन्द्राय सर्वेभ्यः राज्येभ्यः दत्तांशानां संग्रहणं कर्तुम् आदिष्टम्। सर्वोच्चन्यायालयेन सूचितं यत् ये बालकाः रक्षिताः सन्ति तेषां साक्षात्कारः करणीयः, येन एतादृशीनां घटनानां कृते के उत्तरदायिनः इति ज्ञातुं शक्यते। यानि राज्यानि दत्तांशं न दत्तवन्तः तेषां विषये न्यायपीठः विमर्शं करोति, अपि च यदि आवश्यकं भवति तर्हि अस्मिन् विषये कठोरान् आदेशान् दातुं शक्नोति इति अवोचत्। बांग्लादेशस्य त्रयोदश संसदीय निर्वाचनस्य अथवा जातीय संसद निर्वाचनस्य प्रचारः तत्सम्बद्धः जनमतसंग्रहः च अद्य प्रातः समाप्तिं गतः, येन गुरुवासरे मतदानात् पूर्वम् अनिवार्यः 48 घण्टात्मकः मौनः कालः प्रारब्धः। राष्ट्रिय संसदीय निर्वाचनार्थं जनमतसंग्रहाय च जुलाई राष्ट्रियपत्रस्यान्तर्गतं मतदानं भविष्यति। निर्वाचनस्य अन्तिमः चरणः कठोर प्रतिबन्धानां वर्धित सुरक्षायाः नूतन सर्वेक्षण अनुमानानां च मध्ये भवति। एतदतिरिच्य संयुक्त राष्ट्रसंघस्य महासचिवः अन्टोनियो गुटरस् बांग्लादेशे संसदीय निर्वाचनात् प्राक् सैन्येन आरक्षकैः च पत्रकाराणाम् उपरि कृतानाम् आक्रमणानां विषये चिन्ता प्रकटिता। संसदीय कार्यमन्त्री किरेन रिजिजुः लोकसभायाः कार्यवाहिन्यां विपक्षस्य सांसदाः विघ्नं जनयन्ति इति आरोपयत्। तेषाम् आचरणं प्रतिबिम्बयति यत् ते सभायाः मर्यादायाः विषये किमपि आदरं न कर्तुमिति। संसदः बहिः प्रसारमाध्यमैः सह वार्तालापं कुर्वन् श्री रिजिजुः अवदत् यत् कांग्रेसदलस्य महिलाः सांसदाः विघ्नं कृतवत्यः। गतसप्ताहे सदनस्य प्रधानमन्त्री आसनस्य समीपे अपि गतवत्यः। एतत् लज्जाजनकं कृत्यमस्ति। निर्वाचनायोगेन असम, केरल, तमिलनाडु, पश्चिमबंगाल, पुदुचेरी प्रदेशेषु 26,000 वर्षे विधानसभा निर्वाचनानां संचालनेन सम्बद्धानां अधिकारिणां स्थानान्तरणस्य पदस्थापनस्य च निर्देशाः प्रसारिताः। एतेषां वर्तमान विधानसभानां कार्यकालः 26,000 वर्षे मई मासात् जून मासपर्यन्तं समाप्यन्ते, येन आयोगेन पूर्वसज्जतायै प्रशासनिक पदाक्षेपाः उत्थापिताः। आयोगः अवदत् यत् निर्वाचनकार्ये प्रत्यक्षतया संलग्नाः अधिकारिणः स्वगृहेषु, मण्डलेषु वा यत्र ते विगत चतुर्वर्षेषु वर्षत्रयं सेवां पूर्णं कृतवन्त्यः तत्र वा नियुक्ताः भवितुं नानुमन्यन्ते। पुरुषाणां 20-प्रति20 क्रिकेट विश्वचषक क्रीडायाः ग्रुप स्टेज संघर्षे न्यूजीलैंड दलेन यूनाइटेड अरब अमीरात दलं 10-2 पराजितम् इति वार्ताः।